महर्षिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्य परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजं शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः चातुर्मास्यात्मने मध्यमाभ्यां नमः निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषट् निरूढपशुबन्धात्मने कवचाय हुं ज्योतिष्टोमात्मने नेत्रत्रयाय वोषट् सर्वकृत्वात्मने अस्त्राय भट् भूर्भुवस्सुवरोमिति दिग्बन्धः भुवन ब्रह्माण्डमाविस्फुरत् ज्योतिस्पाटिकलिङ्गमौलि विलसत् पूर्णेन्दुवान्तामृतैः अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन् ध्याये दीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेत् शिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे काला कपर्दा कलितशशिकला चण्डकोदण्डहस्ता रक्षा रुद्राक्षमाला प्रकटितविभवा शाम्भवा मूर्तिभेदाः रुद्र श्रीरुद्रसूक्तप्रकटितविभवा न प्रयच्छन्तु सौख्यम् देवाय धीमहि तन्नो रुद्र प्रचोदयात् सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्र प्रचोदयात् पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञातं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मृतं च मे अमृतं च मे अयक्ष्मं च मे अनामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे अनमित्रं च मे अभयं च मे सुखं च शयनं च मे सुषा च मे सुदिनं च मे।